मङ्गलश्लोकेन आरम्भं कुर्मः. श्री आदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या विभ्राजते प्रोन्नतराजयोगम् आरोढुमिच्छोरतिरोहिणीव. अस्माभिः मत्स्येन्द्रपीठं तन्नाम पूर्णमत्स्येन्द्रासनं दृष्टम् किल, तस्य फलमपि दृष्टं सप्तविंशतितमे श्लोके. अधुना अष्टाविंशतितमः श्लोकः. अयं श्लोकः पश्चिमतानासनस्य विषये अस्ति. श्लोकः इत्थं: प्रसार्यपादौ भुवि दण्डरूपौ दोर्भ्यां पदाग्रद्वितयं गृहीत्वा जानूपरिण्यस्तललाटदेशः वसेदिदं पश्चिमतानमाहुः. श्लोकम् एकवारं पठित्वा पदच्छेदं करोतु.
प्रसार्यपादौ भुवि दण्डरूपौ दोर्भ्यां पदाग्रद्वितयं गृहीत्वा जानूपरिण्यस्तललाटदेशः वसेदिदं पश्चिमतानमाहुः.
पदच्छेदः क्रियतां.
प्रसार्य पादौ भुवि दण्डरूपौ दोर्भ्यां पदाग्रद्वितयं गृहीत्वा जानूपरि न्यस्तललाटदेशः वसेत् इदं पश्चिमतानम् आहुः.
अयम् अत्यन्तं सरलः श्लोकः, नाम अर्थः बहु शीघ्रं प्रतिबुध्यते. पादौ प्रसार्य, पादयोः प्रसारणं करणीयं. कुत्र? भुवि, भूमौ उपविश्य पादयोः प्रसारणं करणीयं. दण्डरूपौ, नाम पादौ यदा प्रसारितौ तदा तौ पादौ कथं भवेताम्? दण्डरूपौ भवेताम्, तन्नाम ऋजुतया, स्ट्रैट्. अतः ऋजुतया द्वौ पादौ प्रसारणीयौ. अनन्तरं किं करणीयम्? उपविश्य पादद्वयं प्रसार्य भूमौ. अग्रे किं करणीयम्? दोर्भ्यां पदाग्रद्वितयं गृहीत्वा, नाम हस्ताभ्याम्. अत्र दोर्भ्याम् इत्यनेन बाहुभ्याम् इत्यर्थः. बाहोः प्रसारणमपि करणीयं. पादौ प्रसारितौ, बाहोः अपि प्रसारणं करणीयं. प्रसार्य किं करणीयम्? पाद अग्र, पादः अस्ति, पादद्वयमस्ति, पादद्वयस्य अग्रभागः नाम उच्चैः विद्यमानभागः नाम पादाङ्गुष्ठ, सत्यं किल? पादाङ्गुष्ठौ एव अत्र पदाग्रशब्देन उच्यते. पदाग्रद्वितयं, द्वितयं नाम द्वौ इत्यर्थः. पदाग्रयुगलं, पदाग्रद्वन्द्वं गृहीत्वा तत् करणीयं. तत् किम् उच्यते इति चेत्, तत्र अङ्गुष्ठप्रदेशौ एवं गृहीतव्यौ. गृहीत्वा अनन्तरम् एतावत् स्पष्टं वा? पादौ प्रसार्य, बाहू अपि प्रसार्य, पादयोः पादाङ्गुष्ठौ यौ भवतः तौ अपि नाम हस्ताभ्यां गृहीतव्यौ. अनन्तरं किं करणीयम्? जानु अस्ति, जानु नाम नी, तत्र किं करणीयम् इति चेत्, ललाटदेशः, ललाटः फोर्हेड्, तत् जानुनोः उपरि स्थापनीयम्. अवगतं वा? अनन्तरं वसेत्, स्थापयित्वा झटिति बहिर्नागन्तव्यं. किं करणीयं? तत्रैव भवितव्यं, तस्यां स्थितौ एव किञ्चित् कालं भवितव्यम्. इदमेव पश्चिमतानासनम् इति आहुः कथयन्ति. पुनः विवृणोमि. पादद्वयस्य प्रसारणं भूमौ करणीयं, कृत्वा हस्तयोः अपि प्रसारणं करणीयम्. अग्रे प्रसार्य हस्ताभ्याम् अङ्गुष्ठद्वयं ग्रहीतव्यं, पादाङ्गुष्ठद्वयं ग्रहीतव्यम्. अनन्तरं ललाटभागः जानुप्रदेशं स्पृशेत्. तत्र व्याख्याने उच्यते, यदा ललाटभागः जानुप्रदेशं जानुनोः उपरि स्पर्शनं प्राप्नुयात्, तदा जानुनी भूमेः उत्थानं न प्राप्नुताम्। अवगतं वा? जान्वोः जानुनोः भूमेः उत्थानं न भवेत्, जानुनोः भूस्पर्शः एव सर्वदा भवेत्, तदा अपि ललाटेन जानुनोः स्पर्शनं करणीयम्। अवगतं वा? तदा बहु सम्यक् फार्वर्ड् बेण्ड् करणीयम् इत्यर्थः। आम् सत्यम्। यदा शरीरस्य पूर्वभागः तत्र जानुस्पर्शार्थम् अधोमुखी क्रियते, तदा स्वाभाविकतया जानुनोः उपरि उत्थानं भवति। तन्निरुद्ध्य पादौ सर्वदा ऋजु एव रक्षणीयौ। अनन्तरं जानुभागः, जानोः अधोभागः अस्ति किल, जानुनोः भागः अस्ति किल, सः भागः भूमिस्पर्शवान् एव भवेत्। एतदेव पश्चिमतानासनम् इति कथयन्ति। पश्चिमतानशब्दस्य कः अर्थः इत्येतत् अग्रिमश्लोके स्पष्टं भवति। एतत् आसनस्य स्वरूपं स्पष्टं वा? तस्य यदा फलकथनं क्रियते अग्रिमे श्लोके, तदा पश्चिमतानशब्दस्य विवरणं वयं प्राप्नुमः। अस्मिन् 31 श्लोके पश्चिमतानासनस्य प्रयोजनं, फलं तद् उच्यते। इति पश्चिमतानमासनम् आसनाग्र्यं पवनं पश्चिमवाहिनं करोति, उदयं जठरानलस्य कुर्यात्, उदरे कार्श्यमरोगताञ्च पुंसाम्। पुनरपि पठामि। इति पश्चिमतानमासन आसनाग्र्यं पवनं पश्चिमवाहिनं करोति, उदयं जठरानलस्य कुर्यात्, उदरे कार्श्यमरोगताञ्च पुंसाम्। श्लोकं पठित्वा पदच्छेदं करोतु।
इति पश्चिमतानमासनाग्र्यं पवनं पश्चिमवाहिनं करोति, उदयं जठरानलस्य कुर्यादुदरे कार्श्यमरोगताञ्च पुंसाम्। इति पश्चिमतानम् आसनाग्र्यं पवनं पश्चिमवाहिनं करोति, उदयं जठरानलस्य कुर्यात्, उदरे कार्श्यम् अरोगतां च पुंसाम्।
इति शब्दस्य अनेन प्रकारेण, अनेन प्रकारेण
पूर्वोक्तश्लोकप्रकारेण
आसनस्य इति कर्तव्यता नाम कथं कर्तव्यता तदुक्तमस्ति, सत्यं किल? हा। इति शब्दस्य इति नाम पूर्वोक्तप्रकारेण पश्चिमतानासनं भवति इति शब्दस्य सः अर्थः। इति अनेन प्रकारेण पश्चिमतानासनाग्र्यम्, एतत् पश्चिमतानासनम् उक्तं, तत् आसनाग्र्यं तादृशं पूर्वोक्तश्लोककथितस्वरूपयुक्तं यदासनं तत् पश्चिमतानम् आसनाग्र्यं, तत् पश्चिमतानं, तस्य आसनस्य नाम किं? पश्चिमतानं। तत् आसनाग्र्यम्, आसनेषु अग्र्यं, मुख्यं, प्रधानम् इत्यर्थः। किमर्थं तस्य प्राधान्यम् इति चेत्, पवनं पश्चिमवाहिनं करोति। पवनं प्राणं, प्राणं प्राणस्य उपरि एतस्य आसनस्य विशेषप्रभावो भवति। पश्चिमवाहिनं करोति, प्राणं पश्चिमनाड्यां वाहयति। प्राणः पश्चिमनाड्यां यथा प्रविशेत्, प्रविश्य च तत्र प्रवहेत्, तथा करोति इदम् आसनम्। पश्चिमशब्दस्य कः अर्थः, पश्चिमनाडीशब्दस्य कः अर्थः इति चेत्, व्याख्यातारः वदन्ति पश्चिमशब्दस्य ना इत्यर्थः। पश्चिमशब्दः सुषुम्ना पर्यायः। सुषुम्ना इति काचित् नाडी अस्ति, इडा, पिङ्गला, सुषुम्ना इति मानवशरीरस्य नाडीत्रयं प्रधानम्। इडासुषुम्नाभ्यामेव अस्माकं सामान्यश्वासोच्छ्वासप्रक्रिया भवति. सुषुम्ना विशिष्टा नाडी सामान्यतः सामान्यजनानाम् अयोगिनां ये योगं न कुर्वन्ति तेषां प्राणः सुषुम्नानाडीं न प्रविशति. हठयोगस्य किं लक्ष्यमिति चेत् प्राणस्य सुषुम्नानाड्यां प्रवेशः. यदा प्राणः सुषुम्नानाडीं प्रविशति तदा सुषुम्नानाडीं प्रविश्य षट्चक्रद्वारा क्रमेण अग्रे अग्रे उपरि गच्छति. उपरि गत्वा तत्र सहस्रारचक्रम् अथवा तत्र आज्ञाचक्रम् अतीत्य यदा सहस्रारस्थानं प्राप्नोति तदा समाधिस्थितिः. तद्वारा पुनः उत्क्रान्तिः, ऊर्ध्वलोकानां गमनम् इत्यादि हठयोगप्रक्रिया अस्ति. अतः प्राणस्य सुषुम्नाप्रवेशः अत्यन्तं प्रमुखः हठयोगे. यतः अस्य आसनस्य नियताभ्यासेन साक्षात् प्राणस्य पश्चिमनाड्यां सुषुम्नानाड्यां प्रवेशः सिद्ध्यति. तस्मात् इदमासनम् आसनाग्र्यम् आसनेषु मुख्यम् इति कथितम्. एतदेव पश्चिमतनस्य नाम्नः अर्थमपि विवृणोति. पश्चिमतानम् पश्चिमे नाम सुषुम्नानाड्यां तानम् तानशब्दस्य तनुविस्तारे इति धातोः तस्य ल्युडन्तरूपम् प्राणस्य विस्तारं कारयति. प्राणस्य पश्चिमनाड्यां सुषुम्नानाड्यां प्रवाहं विस्तारं कारयति इदमासनम्. तस्मात् कारणात् इदं किमित्युच्यते
पश्चिमतान
नाम्नः अर्थः गृहीतः वा. अतः एतद् आसनं विशिष्य सुषुम्नामार्गे प्राणस्य प्रवेशं कारयति. तस्मादिदम् आसनाग्र्यं. तत् यौगिकलक्ष्यम्. अन्यत् लौकिकप्रयोजनानि सन्ति वा इति चेत् अवश्यम् अस्ति. उदयं जठरानलस्य कुर्यात्. जठरानलस्य उदयं कुर्यात्. जठराग्निः इति कश्चित् अग्निः अस्ति इति मया पूर्वमपि कथितम्. जठरे मनुष्याणां जठरे कश्चित् विशिष्टः वैश्वानरः अग्निः अस्ति. यः भुक्तमन्नं सम्यक् पचति तदा भुक्तस्य अन्नस्य सम्यक् पाकः यदा भवति तदा एव शरीरस्य सर्वक्रियाणामपि सम्यक् प्रवृत्तिः भवति. अन्यथा भुक्तान्नस्य सम्यक् दहनं पचनं यदि न भवति तर्हि तत्र अजीर्णतातः आरभ्य अनेकाः समस्याः उद्भवन्ति. तस्मात् जठरानलप्रदीपनं सर्वदापि आवश्यकम्. तस्मात् एतस्य आसनस्य अभ्यासेन जठरानलस्य जठराग्नेः उदयः भवति. उदयो नाम कः? उद्दीपनं भवति इत्यर्थः. सम्यक् ज्वालनं भवति जठराग्निः. भुक्तमन्नं सम्यक् जीर्यति. स्वास्थ्यं च परिरक्षितं भवति. अन्यत् किं करोति इदमासनम्? उदरे कार्श्यम्. उदरे नाम केषाञ्चन उदरम् अत्यन्तं तत्र लम्बोदरं भवति किल. लम्बोदराः बहवः दृश्यन्ते. तैः प्रायः इदम् आसनं यदि क्रियेत अथवा अन्येपि येषाम् अनपेक्षितलम्बोदरत्वं भवति तैः नियताभ्यासेन उदरस्य किं भवति? उदरस्य कार्श्यं, कृशता, श्लक्ष्णता. लक्ष्णं दभ्रं कृशं तनु इत्यमरः. अतः तादृशकृशत्वम् उदरति. अनपेक्षित तत्र फ्लाबिनस् इति उच्यते किल, तत्सर्वम् अस्य आसनस्य गुरुमुखादवगत्य अभ्यासेन सिद्ध्यति. ओ स्वयं लक्षणं पठितं तर्हि अहं साक्षात् श्वः आरभ्य करिष्यामि इति चेत् कण्ठवेदना पृष्ठवेदना पादवेदना सर्वमपि आगच्छति. अतः कथं करणीयम्? अस्माकम् अधुनातन शरीरस्थितिः का? पश्चिमतान आसने कियत्पर्यन्तं तत्र कर्तुं शक्यते इत्यादि. पुनः पश्चिमतानासनं साक्षात् कर्तुं न शक्यते, अन्यानि आसनानि करणीयानि. तदर्थं शरीरे किं करणीयं? फ्लेक्सिबिलिटि, सपल्नेस्, तद् आनेतव्यं. तदनन्तरम् इदं करणीयम्. ओ, पुस्तके लिखितं झटिति करोमि इति चेत् डिसास्टर् एव. तस्मात् तदर्थं सिद्धता, प्राणायामः सर्वं कृत्वा सिद्धैः योग्यैः एव आसनं यदा क्रियते तदा तस्य फलं भवति. अनन्तरम् अरोगतां च, अरोगता अपि सिद्ध्यति. नाम अरोगता शब्दस्य रोगाभावः इत्यर्थः. रोगाभावः कदा भवति? यदा इम्यूनिटि सम्यक् भवति शरीरे, रोगनिरोधकशक्तिः यदा सम्यक् भवति तदा अरोगता सिद्ध्यति. तस्मात् अरोगता शब्दस्य रोगनिरोधकशक्तिविवृद्धिः इत्यर्थः. अवगतं वा? तस्मात् सुषुम्नामार्गे प्रवेशः प्राणस्य उत्तमः उत्तमा जठराग्निप्रदीप्तिः, द्वितीयम् उदरे कार्ष्यम्, अनन्तरम् अरोगता रोगनिरोधकशक्तेः विवृद्धिः इत्यादि. अनन्तरं च इति पदमस्ति किल, तर्हि चकारः किमस्ति? पूर्वोक्तानां सर्वेषां समुच्चयः. अन्येपि अत्र गुणाः भवितुमर्हन्ति, इतोपि अन्येषामपि गुणानां समुच्चयः भवितुमर्हति इति तात्पर्येण तत्र व्याख्यातारः वदन्ति, चकारात् नाडीवलनादिसाम्यं कुर्यात् इति. नाम नाडीवलनम् इति चेत् तत्र नाडिषु वलनं, वलनं नाम बीटिङ्ग्, तत्र हार्ट् रेट् कथं परिशील्यते? अस्माकं पल्स् अवगत्यैव किल तत्र हार्ट् रेट् क्रियते, हार्ट् रेट् अथवा कियदस्ति इति परिशील्यते. तत्र यदि काचित् असन्तुलितता, तस्यापि इम्बेलेन्स् तत्र यदि अस्ति, तस्यापि बेलेन्सिङ्ग्, तदपि यत् आरोग्यकरसन्तुलनं यदपेक्षितं तदपि इदं पश्चिमतानं करोति. चकारस्य इदमपि तात्पर्यम् इति एतदपि योजयितुं शक्यते पश्चिमतानासनम् इति. एवं नानाविधानि प्रयोजनानि आसनस्य. अस्य पश्चिमतानासनस्य अग्रे अग्रिमम् आसनं प्रति गच्छामः वा? त्रिंशत्तमः श्लोकः, यत्र मयूरासनस्य विवरणम् उक्तमस्ति. मयूरासनम् एतावत्पर्यन्तम् आसनानि यानि कृतानि तानि सर्वाण्यपि उपविश्य करणीयानि किल, सामान्यतः उपविष्टस्थितौ क्रियमाणानि आसनानि. एतदासनं यदस्ति मयूरासनं, तत् हेण्ड् बेलेन्सिङ्ग्, तत्र हस्तद्वयमेव भूमौ भवति. अन्यत् अन्यः अन्ये सर्वेपि शरीरभागाः आकाशे भवन्ति, समग्रस्य शरीरस्य हस्ताभ्यां सन्तुलनं मयूरासनं भवति. अतः अन्येभ्यः आसनेभ्यः इदं किञ्चित् विशिष्टं विचित्रञ्च.
कुक्कुटासनवत्वा,
तत्र कुक्कुटासने पद्मासने उपविश्य शरीरस्य उत्थापनम्. अत्र किञ्चित् कथं भवति इति पश्यामः. अत्र पादं प्रसार्य, पादं पृष्ठतः प्रसार्य शरीरस्य उत्थापनं करणीयं. वदामि, तस्य विवरणं यदा पश्यामः तदा स्पष्टं भविष्यति.
अत एव उपविश्य करणीयम् आसनम् इति उक्तं वा कुक्कुटासनम्?
सत्यं, कुक्कुटासनम् उपविश्य खलु आरभ्यते,
आरम्भस्थितौ उपवेशनं.
सत्यम्, अत्रापि किञ्चित् तत्र उपवेशनं भवति, परन्तु किञ्चित् अन्यशैल्या अस्ति. पश्यामः श्लोके किमुक्तं मयूरासनस्य निर्वचनं लक्षणम् इति पश्यामः. धरामवष्टभ्यकरद्वयेन तत्कूर्पितनाभिपार्श्वः उच्चासनो दण्डवदुत्थितः खे मायूरमेतत् प्रवदन्ति पीठम्। पुनरपि उच्चारयामि, धरामवष्टभ्यकरद्वयेन तत्कूर्परस्थापितनाभिपार्श्वः उच्चासनोदण्डवदुत्थितः खे मायूरमेतत् प्रवदन्ति पीठम्। श्लोकं पठित्वा पदच्छेदः क्रियताम्।
धरामवष्टभ्यकरद्वयेन तत्कूर्परस्थापितनाभिपार्श्वः उच्चासनोदण्डवदुत्थितः खे मायूरमेतत् प्रवदन्ति पीठम्।
उत्तमम्।
धराम् अवष्टभ्य करद्वयेन तत्कूर्परस्थापितनाभिपार्श्वः उच्चासनः दण्डवत् उत्थितः खे मायूरम् एतत् प्रवदन्ति पीठम्।
अस्तु, एतत् मायूरं पीठं प्रवदन्ति, अत्र पीठशब्दस्य आसनम् इत्यर्थः। एतत् मयूरासनं, मयूरसम्बद्धं मायूरम्, एतत् मयूरसम्बद्धम् आसनम् इति वदन्ति इति उच्यते। प्रथमं श्लोकम् अग्रे, श्लोकार्थम् अग्रे पश्यामः, किञ्चित् आसनस्य स्वरूपं विवृणोमि, तदनन्तरं श्लोकस्य पदानि स्वयमेव तत्र संलग्नानि भवन्ति। प्रथमं किं करणीयं, वज्रासने उपवेष्टव्यम्। वज्रासनं जानाति वा भवती? टु सिट् ऑन् द हील्स्, उपविश्य उट्टिपोर्णं, नीलिङ्ग्, नीलिङ्ग् पोसिशन् तः वन् हेस् टु सिट् ऑन् द हील्स्, अवगतं किल? अनन्तरं किं करणीयं, हस्तद्वयं, हस्तद्वयं तत्र भूमौ स्थापनीयं। कथं हस्तद्वयस्य भूमौ स्थापनम् इति चेत्, यथा अङ्गुल्यः शरीराभिमुखाः भवन्ति, अदात् द फिङ्गर्स् शुड् नाट् फेस् औट्सैड्। सामान्यतः सूर्यनमस्कारादि यदा अस्माभिः क्रियते तदा सूर्यनमस्कारादिकं यदा कुर्मः, वि सिम्प्लि प्लेस् द हेण्ड् आन् द ग्रौण्ड्, फिङ्गर्स् फेसिङ्ग् औट्सैड्, औट्वर्ड्स्, अवे फ्रम् द बाडि। अधुना किं करणीयमिति चेत्, तत्र किम्, अङ्गुल्यः शरीराभिमुखाः, एतद् अवगम्यते वा? कैय ऊनिकनो तरेल, तद् कथम् इति चेत्, शरीरस्य पुरतः वज्रासने उपविश्य किञ्चित् शरीरस्य पुरतः भूमौ अङ्गुल्यः स्थापनीयाः, करतलं भूमौ स्थापनीयं। कथं करतलं भूमौ करतलद्वयं भूमौ स्थापनीयम् इति चेत्, अङ्गुल्यः शरीराभिमुखाः भवेयुः, अवगतं वा? यदा अङ्गुल्यः शरीराभिमुखाः भवन्ति, अनन्तरं तत्र शरीरं किञ्चित् तद्बलेन अग्रे आनेतव्यम्, अनन्तरं हस्तद्वयस्य कूर्परभागः भवति, कूर्परः नाम एल्बो। यदा वज्रासने उपविशति, वज्रासने उपविश्य भूमौ करद्वयं किञ्चित् वज्रासनात् उत्थातव्यम्। उत्थाय किं करणीयं, हस्तद्वयस्य कूर्परभागः एल्बोस्, तत् नाभिपार्श्वे यथा संलग्नं भवेत् तथा स्थापनीयं। नाभि अस्ति किल, उदरे नाभिभागः अस्ति, तावत्पर्यन्तं शरीरं पुरतः आनेतव्यं। वज्रासनात् उत्थाय मन्दं कूर्परभागः यथा नाभि समीपे आगच्छेत् तथा करणीयं। तदा किं भवति इति चेत्, तदा पादौ पृष्ठतः किञ्चिदिव रुजुकृतौ भवतः, सत्यं वा? द फीट्, बो द फीट् विल् बि स्ट्रेच्ड्, सत्यं वा? इदानीं किं करणीयं, करतलद्वयं भूमौ अस्ति किल, करतलद्वयस्य बलेन शरीरं तत्र पादभागः एव इदानीं स्पृशति, नाम जानुभागः, पादभागः च, नाम पादाङ्गुष्ठभागः च भूमिं स्पृशति अधुना। तद्वयमपि ततः उत्थापनीयं। तदा केवलं करतलद्वयमेव भूमौ भवति, अवशिष्टं शरीरद्वयमपि नाभिपार्श्वे निहित कूर्परद्वयस्य आधारेण आकाशे उत्थितं भवति। सो एतदेव मयूरासनम् इति वदन्ति। नाम जस्ट् लैक् समीचीनं, एतदेव। अत्र यदा दृश्यते चित्रं, यदा दृश्यते कथमस्ति, तत्र अङ्गुल्यः शरीराभिमुखाः सन्ति किल, अतः तत्र कूर्परभागः एल्बो, कूर्परभागः नाभेः पार्श्वे, अनन्तरम् अवशिष्टं शरीरं खे आकाशे, एतदेव मयूरासनम्। नाम शरीरं नाम पादभागः अस्ति किल, सः मयूरस्य पिञ्छभागः इव, अवगम्यते वा? एतद् हस्तद्वयं यत् भूमौ संलग्नम् अस्ति तत् मयूरस्य पादौ इव। अग्रेपि किञ्चित् विशिष्टं पिञ्छमयूरासनमिति क्रियते, एतत् सामान्यं मयूरासनम्, अग्रे पिञ्छमयूरासनम्। पिञ्छमयूरासनम् इत्युक्ते किम् इति चेत्, यदा वृष्टिः भवति मयूरः पिञ्छं किं करोति, एवं हारिजोण्टल् अस्ति किल भूमेः पारल् अस्ति, तत् किं करोति, वर्टिकल् कृत्वा प्रसारयति। एवमेव किं करोति योगी पिञ्छमयूरासने, सम्यक् पादौ आकाशे उत्थाप्य, इतोपि किम् अग्रे उपरि नयति पादौ, इदानीं पारलल् टु द ग्रौण्ड् अस्ति, पिञ्छमयूरासने इतोपि पादयोः उन्नयनम् उपरि करोति, तद् पिञ्छमयूरासनम्। एतत्तु सामान्यं मयूरासनम्। इदं स्पष्टं वा? मया उक्तं विवरणं सर्वमपि अत्र समन्वेति
अवगम्यते।
धराम् अवष्टभ्य, नाम धरां भूमिम् अवष्टभ्य, नाम तस्य नाम भूमेः आधारत्वं गृहीत्वा, कथं करद्वयेन, करतलद्वयेन इति गृहीतव्यं, करद्वयेन नाम करतलद्वयेन, तदपि शरीराभिमुख अङ्गुली त करद्वयेन इति तावद् तावान् अर्थः अत्र योजनीयः, अवगतं वा? तत्कूर्परस्थापितनाभिपार्श्वः, तत्कूर्पर नाम करद्वयस्य यः कूर्परभागः अस्ति, एल्बो भागः अस्ति, तौ द्वौ कुत्र स्थापनीयौ, नाभिपार्श्वे, नाभ्याः नाभेः उभयपार्श्वे, बै द सैड्स् आफ् द टू, बै द सैड्स् आफ् द नाभि, नेवल्। अनन्तरम् उच्चासनः, इदानीम् आसनः नाम तस्य स्थितिः, अवस्थितिः नाम उच्चैः भवेत्। कथं शरीरम् उत्थापनीयम् इति चेत्, दण्डवत् उत्थितः, नाम ऋजुतया कथञ्चित्, यथा कथञ्चित् उत्थापनं न करणीयं, दण्डवत् ऋजुतया उत्थापनं करणीयं, खे नाम आकाशे उत्थापनं करणीयम्। एतत् मायूरं पीठं प्रवदन्ति, एतदेव मयूरासनम् इति कथयन्ति। अस्य प्रयोजनम् अग्रिमश्लोके अस्ति। हरति सकलरोगान् आशु गुल्मोदरादीन्, अभिभवति च दोषान् आसनं श्रीमयूरम्, बहुकदशनभुक्तं भस्मकुर्यादशेषं, जनयति जठराग्निं जारयेत् कालकूटम्। पुनरपि वाचयामि। हरति सकलरोगान् आशु गुल्मोदरादीन्, अभिभवति च दोषानासनं श्रीमयूरं, बहुकदशनभुक्तं भस्मकुर्यादशेषं, जनयति जठराग्निं जारयेत् कालकूटम्।
हरति सकलरोगानाशु गुल्मोदरादीन्, अभिभवति च दोषानासनं श्रीमयूरं, बहुकदशनभुक्तं भस्मकुर्यादशेषं, जनयति जठराग्निं जारयेत् कालकूटम्। हरति सकलरोगान् आशु गुल्मोदरादीन्, अभिभवति च दोषान् आसनं श्रीमयूरं, बहु कदशनभुक्तं भस्मकुर्यात् अशेषं जनयति जठराग्निं जारयेत् कालकूटम्।
सम्यक्, बहु सरलः एव अयमपि श्लोकः। कानिचन पदानि एव नूतनानि। हरति सकलरोगान्, सर्वान् रोगान् हरति। हरति नाम नाशयति, निवारयति। कथं नाशयति? आशु, आशु हरति। आशु नाम
शीघ्रं,
शीघ्रम्। आशुकविः इति उच्यते किल पद्यस्य तात्पर्यं वदामः, झटिति सः पद्यं रचयति, सः आशुकविः। परमशिवस्य, ईश्वरस्यापि आशुतोषः इति प्रयोगः अस्ति। सः शीघ्रकोपि, किन्तु शीघ्रमेव सः तुष्यत्यपि। भक्तानां स्तुत्या सः आशु तुष्यति, तस्मात् सः आशुतोषः। एवमेव अयम् आसनविशेषः किं करोति? रोगान् हरति। कान् रोगान् हरति? सकलान् रोगान्, अशेषान् रोगान् हरति। तदपि कथं हरति? आशु। कीदृशाः ते रोगाः? उदाहरणार्थं चेत् गुल्मोदरादीन्, गुल्म उदर इत्येवमादीन् रोगान् सकलान्। गुल्मशब्दः रोगशब्दः च, गुल्मशब्दः उदरशब्दः च, उदरशब्दः च रोगविशेषसूचकः। गुल्मशब्दस्य एन्लार्ज्मेण्ट् आफ् ग्लाण्ड्स् इति, तत्र शरीरे ग्लाण्ड्स् भवन्ति, तेषां यदा अनपेक्षित स्थौल्यवृद्धिः भवति गुल्मरोगः इत्युच्यते। उदरशब्दस्य उदरसम्बद्धदोषाः ड्राप्सि इति कश्चन रोगविशेषः। एतेषां सर्वे सामान्यतः ये सर्वेपि रोगाः उदरसम्बद्धाः, तेषां सर्वेषामपि रोगाणाम् आशुनाशकः आसनविशेषः। हरति सकलरोगान् आशु गुल्मोदरादीन्। अभिभवति च दोषान्, अभिभवति, अभिभवति नाम पराजयते, निवारयति। दोषान्, वातपित्तकफान्। दोषशब्दस्य अत्र आयुर्वेदीयदोषाः अत्र स्वीकरणीयाः इति व्याख्याता कथयति। आयुर्वेदे त्रयः दोषाः किं, के ते त्रयः दोषाः?
पित्तवातकफ,
वातः, पित्तं, कफः इत्येते त्रयः दोषाः। एतेषां दोषाणां यदि वैषम्यं भवति, रोगस्तु दोषवैषम्यम् इति तत्र व्याख्यानेषु द्रष्टुं शक्यते। रोगशब्दस्य निर्वचनं, रोगस्तु वैषम्यं नाम वातपित्तकफादीनां यदा समत्वं न भवति तदा रोगाः भवन्ति। अतः अभिभवति नाम दोषेषु यद् वैषम्यम् अस्ति तत् अभिभूयते अनेन आसनेन। दोषान् अभिभवति इति शब्दस्य सः अर्थः। वातपित्तकफे कफेषु यः वैषम्यभावः तत् निवार्यते मयूरासनेन। हरति सकलरोगान् आशुगुल्मोदरादीन्, अभिभवति च दोषान्। कः करोति एतत् सर्वं? कर्तृत्वं कस्य? श्रीमयूरं, मयूरासनं, श्रीमयूरं नाम अत्यन्तं विशिष्टं। श्रीशब्देन अत्र आदरः सूच्यते, तस्मात् श्रीमयूरम्। अन्यत् किं करोति? बहु कदशं भस्मकुर्यात् अशेषं। बहु कदशनभुक्तं, कदशनं नाम यत् न खादनीयं, बहुशब्दस्य अतिशयितं। कदशनं, कदन्नं, कदन्नं नाम कः अर्थः? कुत्सितम् अन्नं, कदन्नं। कुत्सितः राजा, का राजा इत्यादि प्रयोगः भवति किल, कुत्सितः ग्रामः, कुग्रामः एवमेव कुत्सितम् अन्नं किमित्युच्यते?
कदन्नं.
कदन्नं कुत्सितम् अन्नं तत् यत् न भोक्तव्यम् अस्माकं प्रकृतेः अननुकूलं यत् अन्नम् अस्ति तत् कदन्नं कुत्सितम् अन्नं बहु कदश तदपि बहु पूर्वमेव तत् अन्नम् अस्माकं प्रकृतेः अनुरूपं न तदपि अन्नं यदि बहु भुज्यते किं भवति? उदाहरणार्थं मम रोटिकादिकं शीघ्रं न जीर्यते तद् मया मम दृष्ट्या कदन्नं तदपि दश पञ्चदश रोटिकाः यदि मया खाद्यते किं भवति? गण्डस्योपरि पिटकः संवृत्तः इत्युक्तक्रमेण समस्यायाः उपरि समस्या तथा भवति किल. परन्तु यः श्रीमयूरासनं कर्तुं प्रभवति सः बहु कदशनभुक्तं भस्मकुर्यात्. तत्सर्वमपि भुक्तम् अन्नं किं भवति? भस्मीभूतं भवति, सम्यक् जीर्णं भवति इत्यर्थः. बहु कदशनभुक्तं भस्मकुर्यात् अशेषं, तत्र निःशेषतया किञ्चिदपि कदन्नं यद् बहु भुक्तं तन्न अवशिष्यते, सम्यक् तत् पच्यते शरीरेण जठराग्निना, तावत् जठराग्निदीपनं भवति अनेन आसनेन. भुक्तं भस्मकुर्यादशेषम् अन्यत् जनयति जठराग्निं. पुनः तत् कथं कदशनभुक्तं भस्मीक्रियते? यदा जठराग्निः सम्यक् विवृद्धः भवति तदा पूर्वतनं कार्यं सेत्स्यति. तस्मात् अत्यन्तं नियमोल्लङ्घनं यदा कृतं भवति आहारसेवनविषये तदा सम्यक् जठनाग्नेः विवर्धनं कृत्वा इदं मयूरासनं नियतरूपेण अभ्यस्यमानं तादृशस्य अननुकूलस्य आहारस्य जीर्णताम् आपादयति. किञ्च धारयेत् कालकूटं. तत्र कालकूटं नाम किम्? अत्यन्तम् अत्यन्तं तीक्ष्ण नाम कालकूटम् इति. कालकूटम् इति हलाहलविषम् इति उच्यते किल, एवमेव कालकूटविषं नाम अत्यन्तमेव प्रबलं तद्विषं. किञ्चित् भुज्यते चेदपि मरणं ध्रुवं. तादृशं तादृशस्य विषस्य भोजनं क्रियते चेदपि मयूरासने यः निष्णातः यः निपुणः तदपि जीर्यति. किमुत अन्नम् इति तत्र कैमुतिकन्यायस्य प्रयोगः. यदा कालकूटमेव भुक्त्वा तस्य जीर्णता सिध्यति मयूरासनस्य अभ्यासेन, किमुत अन्यस्य भोजनस्य इति. अनेन कारणेन मयूरासनं कृत्वा विषं पीत्वा न द्रष्टव्यम्. एतत्तु किम् इत्युच्यते, तत् मयूरासनस्य स्तुत्यर्थम् एतानि वचनानि उच्यन्ते. नाम सम्यक् यदि तत्र कालकूटशब्दस्य विवरणं करोति, कालकूटं व्याख्याता, कालकूटं विषं, कालकूटवत् अपकारकम् अन्नम् इत्येव. अतः कालकूटशब्दस्य तत्र किं यथावदर्थः न स्वीकरणीयः. परन्तु तत्र गम्यमानः अर्थः कः, ध्वनितः अर्थः कः इति चेत् कालकूटम् अपकारकम्, एवमेव अत्यन्तमेव अपकारकम् अपकारकं तत् कालकूटम्. एवमेव यद्यद् अन्नं शरीरस्य कृते प्रतिकूलं तादृशं सर्वमपि अन्नं सम्यक् जीर्यति अस्य आसनस्य अभ्यासेन. एतत् तात्पर्यम्. इतोपि एकम् आसनम् उच्यते शवासनमिति. शवासनमपि दृष्ट्वा समापयामः. तदा किं भवति इति चेत् प्रमुखाणाम् एकादश आसनानाम् अवलोकनं कृतं भवति. अनन्तरं तेषु अपि नाम तत्र तदपेक्षया इतोपि विशिष्टम् आसनचतुष्टयम् अग्रे उच्यते. सिद्धासनं, पद्मासनं, सिंहासनं, भद्रासनम् इति. सः भागः अग्रिमकक्षायां नाम सविस्तरं द्रष्टव्यः. इदानीम् अग्रिमं श्लोकमेकं शवासनस्य विवरण कर्तृ विवरणरूपं यत् यत् पद्यमस्ति तद् अधुना दृष्ट्वा तेन समाप्तिं कुर्मः. उत्तानं शववद्भूमौ शयनं तच्छवासनं शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम्. पुनः अपि पठ्यते. उत्तानं शववद्भूमौ शयनं तच्छवासनं शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम्. पठ्यतां पदच्छेदश्च क्रियताम्.
उत्तानं शववद्भूमौ शयनं तच्छवासनं शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम्. उत्तानं शववत् भूमौ शयनं तत् शवासनं शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम्.
बहु सरलं किल. अत्र भूमौ शयनं तत् शवासनं. भूमौ शयनं करणीयं, तदेव किं शवासनं. कथं भूमौ शयनं? शववत्. शवः नाम यस्मात् देहात् प्राणः निर्गतः सः देहः किमित्युच्यते? शवः इति. तद्वत् भूमौ शयनं नाम निश्चलतया इत्यर्थः. नाम शवः एवमेव निश्चलतया अङ्गचालनेन विना शयनं. कथं शयनं? शयनं नानाप्रकारं, प्रोन् सुपैन् इत्येवं बहुधा अस्ति. यथा पृष्ठभागः भूमिं पृशति तथा शयनम्. उत्तानम्, उत्तानम् इति शब्दस्य यथा शिरः आकाशाभिमुखः अस्ति तथा, तद् उत्तानम् इति शब्दस्य अर्थः. अवगम्यते वा? उत्तान उत्थानं न इदम् अपि तु उत्तानम्. उत् नाम उपरि इत्यर्थः, तान शब्दस्य प्रसारणम् इत्यर्थः. नाम ऊर्ध्वमुखतया शरीरस्य प्रसारणं यत् क्रियते तदेव उत्तानम् इति. सो सर्वदा उत्तानम् इति शब्दस्य फेसिङ्ग् अप्वर्ड् इत्यर्थः. अतः शववत् उत्तानं शयनं शवासनं, शववत् निश्चलतया आकाशाभिमुखतया शिरः संस्थाप्य शयनम् एव शवासनम्. अनेन शवासनेन किं भवति? शवासनं श्रान्तिहरं. शवासनं किं करोति? श्रान्तिः, शारीरिकश्रान्तिः या जायते. कदा जायते? पूर्वोक्तमयूरासनादि यदा क्रियते तदा अत्यन्तमेव श्रमः भवति. हस्तद्वयस्य बलेन, करतलद्वयस्य बलेन समग्रशरीरस्य उत्थापनं यदा क्रियते किं भवति? ईदृशहठाभ्यासेन श्रमः जायते. अतः तादृशशारीरिकश्रमापनयनम् अनेन शवासनेन भवति, श्रान्तिहरं. किञ्च किं करोति? चित्तविश्रान्तिकारकं. चित्तस्यापि किं करोति? विश्रान्तिं ददाति, विश्रामः. यथा भवति चित्तं यदा यथा अत्यन्तमेव शान्तं जायेत तथा करोति इदं शवासनम्. अतः यदा यदा हठाभ्यासात् शारीरिकश्रमः जायते तदा किं करणीयं? शवासनं करणीयम् इत्येवम् एकादशसङ्ख्याकानि आसनानि दृष्टानि. इतः परं चत्वारि विशिष्टानि अन्यानि आसनानि अग्रे दृश्यन्ते. अत्र स्थगयामः. श्री आदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या, विभ्राजते प्रोन्नतराजयोगम् आरोढुमिच्छोरधिरोहिणीव.